एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्रिणा केपी शर्मा ओलिना चिकित्सा शिक्षाया शुल्कम् न वर्धयितुम् चिकित्सा शिक्षायोगः निर्दिष्टो वर्तते। चिकित्सा शिक्षायोगस्य शुल्क निर्धारण परामर्श कार्यदलेन अस्मिन् वर्षे शुल्कम् वर्धयितुम् परामृष्टम्। सदपि आयोगस्य अध्यक्षश्च प्रधानमन्त्री ओली आयोगस्य परह्यस्तनुपवेशे सम्प्रति कोरोना महामार्याः समयो स्थिति हेतोः प्रस्तावितं शुल्कं न वर्धयितुं निर्दिशत्। आयोगेन अस्य वर्षस्य शैक्षिक सत्रस्य कृते एमबीबीएस चिकित्सा स्नातक कार्यक्रमाय अष्टलक्षाणां रूप्यकाणां वर्धनात्मकः प्रस्तावः प्रस्तुतः आसीत्। उपवेशेन एतस्मिन् वर्षे निर्णयनाय शिक्षा विज्ञान प्रविधि मन्त्रिणः एतस्मिन् विषये निर्णयनाय शिक्षा विज्ञान प्रविधि मन्त्रिणः कृष्णगोपाल श्रेष्ठस्य अध्यक्षतायां सप्तसदस्यीयं कार्यदलं संघटितं वर्तते। प्रधानमन्त्री केपी शर्मा ओली गदति पूर्वजनमुक्तिसेनायाः समस्या राजनीतिक रूपेण समाधास्यते। पूर्वजनमुक्तिसेनायाः आदेशकैः सह ह्य प्रधानमन्त्री निवासे बालवाटार स्थाने सम्पन्ने विमर्शने प्रधानमन्त्री ओली अभाषत जनयुद्धस्य अवधौ विहितम् योगदानं त्यागं बलिदानं क्रान्ते स्वप्नं च प्रति सम्मानोऽस्ति। सर्वकारेण भारतात् प्राप्तस्य कोरोना संक्रमण विरुद्धस्य टीकाकरणस्य प्रयोगाय अस्यैव मागस्य अष्टादशम् दिवसम् यावत् सर्वेषु जनपदेषु टीकाकरणाभियानं संचालयितुं पूर्वकार्यं विहितं वर्तते। टीकाकरणं स्वास्थ्यसेवाविभागस्य टेकवर्तिनि केन्द्रीयशीतभण्डागारे स्थापितमस्ति। आवश्यकतायाः अनुसारेण जनपद चिकित्सालयेषु टीकाकरणं प्रापयितुं पूर्वकार्यं विधीयमानमस्तीति च ह्य स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतम अज्ञापयत्। प्रवक्ता डाक्टर गौतमः सर्वेषु जनपद चिकित्सालयेषु टीकाकरणस्य भण्डारणाय आवश्यक पूर्वाधाराः शीत भण्डारणागाराणि च सन्तीत्यतः सर्वेषु जनपदेषु अभियानमेतत् सञ्चालयितुं किमपि काठिन्यं नास्तीति अबोधयत्। सर्वकारेण प्रथमचरणे स्वास्थ्यकर्मिषु रोगीवाहकयान संचालकेषु स्वच्छीकरण कर्मचारिषु अन्येषु कोरोना संक्रमणस्य उच्च संकटे स्थितासु व्यक्तिषु च टीकाकरणं विधास्यते इति ज्ञापितं वर्तते। कोरोना विषाणोः कारणेन पूर्वेद्यो अतिरिक्ताः द्वात्रिंशदधिक शतद्वयं जनाः संक्रान्ताः सन्ति। यः अतिरिक्ताः षडशीत्यधिक शतत्रयं जनाः विषाणोः संक्रमणात् मुक्ताः वर्तन्ते। नेपाले कोरोना विषाणोः संक्रमणात् मुक्तानां जनानां प्रतिशतं 10.97 वर्तते। आराष्ट्रं 63 52 शतचतुष्टयं च संक्रान्ताः जनाः स्वास्थ्यलाभाय अवशिष्टाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य अतिरिक्ताः 8 जनाः विषाणोः संक्रमणस्य कारणेन अम्रियन्त इति च मन्त्रालयसौ सूचयति। आवासीयतर नेपाली संघस्य विशेष महाधिवेशनं गतदिने काष्ठमण्डपे प्रारब्धम्। अस्य संघस्य विशेष साधारण सभां संगणकीय माध्यमेन उद्घाटयन् परराष्ट्रमन्त्री प्रदीप कुमार ग्यावाली प्रावोचत् आवासीयतर नेपालीभिः कोरोना विषाणोः विश्वव्यापी संक्रमणस्य मध्ये निरूढा भूमिका प्रशंसाराः वर्तते। मन्त्री ग्यावाली अगदत् संघोऽयं संघटनस्य संकटस्य समये स्वस्य औचित्यम् आवश्यकताञ्च स्थापयितुं सफलः संवृतो वर्तते। परराष्ट्रमन्त्री प्रदीप कुमार ग्यावाली तर्कयति वर्तमान सर्वकारेण राष्ट्रियहितं सर्वोपरि मत्वा शोभनेषु जनपक्षीयेषु च कार्येषु भीतेषु सत्स्वपि स्वस्यैव दलस्य नेतृभिः परिवेष्टन सहजनस्य कारणेन राष्ट्रे वर्तमाना परिस्थिति उद्भूता वर्तते। गुल्मी जन पदीयया नेपाल कम्युनिष्ट पार्टी नेकपा दलीय रेसुङ्गा नगर समितिया ह्य तम्घास स्थाने आयोजिते अग्रणी कार्यकर्ता मेलने मन्त्री ग्यावाली अनुचित विषयेण सह भूयो भूय संविधाकरणस्य वैपरीत्येन जनतायै निर्णयनावसर प्रदानम् उत्तमं मत्वा प्रतिनिधिसभां विघटय्य निर्वाचनम् उद्घुष्टमिति व्यतर्कयत्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री भानुभक्त ढकालः निगदति लोकतन्त्राय आर्थिक समृद्धये च प्रधानमन्त्रिणः ओलिनः त्यागः समर्पणं योगदानं च उच्चैर्वर्तन्ते। सार्वजनिक पुस्तकालय संघस्य प्रथमं राष्ट्रिय महाधिवेशनं ह्यः झापा जनपदस्य दमकस्थाने उद्घाटयन् असौ अभाषत प्रजातन्त्राय चतुर्दशत्वपि अधिकानि वर्षाणि यावत् व्यतीत कारावास जीवनस्य प्रधानमन्त्रिणः ओलिनः योगदानस्यैव कारणेन इदानीं देशेन परिवर्तनं प्राप्तमस्ति। नेपाली कांग्रेस दलस्य महामन्त्री डाक्टर शशांक कोइराला भाषते संसद पुनस्थापना कांग्रेस दलस्य प्रथमा प्राथमिकता वर्तते। कञ्चनपुरस्य महेन्द्रनगरे ह्य आयोजिते पत्रकार सम्मेलने असौ वामदलं विभक्तं नास्ति निर्वाचनायोगेन प्रदास्यमानानां निर्वाचन चिह्नादीनां कारणैः निर्वाचनं स्पष्टं नास्तीति धारणाम् उपस्थापयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रचण्ड माधव समूहस्य स्थायी समितेः उपवेशः अद्यवसति। पेरिस टाँडावर्तिनी दलस्य केन्द्रीय कार्यालय गतदिने उपविष्टेन सचिवालय उपवेशेन अद्य रविवासरे दिवासार्धद्वादने स्थायी समिते उपवेश आकरितो वर्तते। उपवेशस्य पश्चात् दलस्य प्रवक्ता नारायणकाली श्रेष्ठ सामयिक राजनीतेः प्रतिनिधि सभायाः विघटन विरोधिनः आन्दोलनस्य कार्यक्रमस्य च विषययोः विमर्शनाय अद्य स्थायी समितेः उपवेश उपविश्यमानोस्तीति अज्ञापयत्। नेपाले पञ्चाङ्ग निर्णायक समितौ धर्मशास्त्रस्य नेपाल पञ्चाङ्ग निर्णायक समितौ धर्मशास्त्रस्य ज्योतिषशास्त्रस्य च विषय विज्ञानाम् नियुक्तये धर्मशास्त्रविद्भिः ज्योतिष विद्भिश्च अभियाचितम् अस्ति। दक्षिण एशियाई ज्योतिष महासंघेन ह्य चावेल स्थाने आयोजिते कार्यक्रमे धर्मशास्त्रविदः ज्योतिषशास्त्रविदश्च एवं अयाचन्त। गत पौषस्य विंशे दिवसे उपविष्टेन मन्त्रिपरिषदः उपवेशेन समितिं संघटयितुम् आदेशस्य पारिति भवनेन सहैव नूतन पदाधिकारिणां नियुक्तये चर्चा प्रारब्धा वर्तते। कार्यक्रमे समितेः अध्यक्ष धर्मशास्त्रविद् च प्राध्यापकः डाक्टर रामचन्द्र गौतमः अद्यावधि शास्त्रसम्मत रूपेण पञ्चाङ्ग प्रकाशनं विधीयमानमस्ति अतः परमपि कार्यं कर्तुं समर्थानं शास्त्रविदां नियुक्तये अभ्ययाचत। सर्वकारेण स्थानीय स्तराणां कर्मचारिणां त्यागपत्रस्य अनिवार्यावकाशपत्रस्य च स्थानीय स्तरेभ्य एव स्वीकृतेः नूतन व्यवस्था विहिता वर्तते इति समाचाराः।